अथ षष्ठः स्कन्धः
अथ षोडशोऽध्यायः श्रीशुक उवाच अथ देवऋषिराजन् सम्परेतम् नृपात्मजम् दर्शयित्वेति होवाच ज्ञातीनाम् अनुशोचताम् नारद उवाच जीवात्मन् पश्य भद्रम् ते मातरम् पितरम् च ते सुहृदो बान्धवास्तप्ताः शुचास्त्वत्कृतया भृशम् कले वरम् समाविश्य शेषमायुः सुहृद्वतः भुङ्क्ष भोगान् पितृप्रत्तामधितिष्ठ निपासनम् जीव उवाच कस्मिन् जन्मन्यमि मह्यम् पितरो मातरो भवन् कर्मगृह्राम्यमाणस्य देवत्रियन्द्रियोनिषु बन्धु ज्ञातरि मध्यस्थम् मित्रो दासीन विद्विषः सर्वे एव हि सर्वेषाम् भवन्ति क्रमशोमिथः यथा वस्तूनि पर्ण्यानि हेमादिनि ततस्ततः पर्यटन्ति नरेष्वम् जीवो ज्योनिषु कर्तृषु नित्यस्यार्थस्य सम्बन्धो यन्नित्यो दृश्यतेन्द्रषु यावज्जस्य हि सम्बन्धो ममत्वम् तावदेव हि एवम् यो निगतो जीव स नित्यो निरहङ्कृतः यावज्जत्रोपलभ्येत तावत् स्वत्वम् हि तस्य तत् एष नित्यो देयः सूक्ष्म एष सर्वाश्रयः स्वदृक् आत्माया गुणविश्वम् आत्मानम् सृजति प्रभु न ह्यस्याति प्रियः कश्चिन्न प्रियः स्वपरोऽपि वा एकः सर्वधियाम् दृष्टा कर्तॄणाम् गुणदोषयोः न दत्त आत्मा हि गुणम् न दोषम् न क्रियाफलम् उदासीनवदासीनः परावर्दृगीश्वरः श्रीशुक उवाच इत्युद्दीर्घगतो जीवो ज्ञातयस्तस्य ते तदा विस्मितः मुमुचुः शोकम् छित्त्वात्मस्नेहशृङ्खलाम् निर्हृतज्ञातयो ज्ञातिर्देहम् कृतोचिता क्रिया तत्त्यजुर्दुस्त्यजम् स्नेहम् शोकमोहभयापिदम् बालग्नो व्रीडितास्तत्र बालहत्या हतप्रभा बालहत्यावृतम् चेरुर्ब्राह्मणे जन्निरूपितम् जमुनायाम् महाराज स्मरन्त्यो द्विजभाषितम् स इत्थम् प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः गृहान्धकूपाड् निष्क्रान्त शरः पङ्कादिव द्युपः कालिन्द्याम् विध्वस्नात्वा कृतपूर्णजलक्रियः मौनेन संयत प्राणो ब्रह्मपुत्र उपबन्धत अथ तस्मै प्रपन्नाय भक्ताय प्रेतात्मने भगवान् नारदः प्रीतो विद्यामेत्ता अनुवाच ॐ नमस्तुभ्यम् भगवते वासुदेवाय धीमहि प्रदुम्नाय निरुद्धाय नमः संकर्षणाय च नमो विज्ञानमात्राय परमानन्दमूर्तये आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये आत्मानन्दानुभूत्यैव न्यस्तशक्तिर्मये नमः हृषीकेशाय महते नमस्ते विश्वमूर्तये वचस्सुप्रते प्राप्य यायिको मनसा सह अनामरूपश्चिन्मात्र शोभ्या न सदसत्परः यस्मिन्निदम् च तश्चेदम् तिष्ठत्यप्येति जायते मृण्मयेष्विमृजातिस्तस्मै ते ब्रह्मणे नमः जन्म स्पृशन्ति न विदुर्मनो बुद्धीन्द्रियाशवः अन्तर्बहिश्च विततम् व्योमवत्तन्नतोऽस्म्यहम् देहेन्द्रिय प्राणमनो धियोमि जदंशविद्धा प्रचरन्ति कर्मसु नैवान्यदा लोहमिवा प्रतप्तम् स्थाने सुतद्रष्टुमुपदेशमिति ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सकलसात्वत्यपरिव्रीढनिकरकरकमलकुड्मलोपलालितचरणारविन्दयुगल परम् परमेष्ठिम् नमस्ते श्रीशुक उवाच भक्तायेताम् प्रपन्नाय विद्यामादिश्य नारदः जजावङ्गिरसाकम् धाम स्वयम्भुवम् प्रभो चित्रकेतुस्तु विद्याम् ताम् यथा नारदभाषिताम् धारयामास सप्ताहम् अभक्षसु समाहितः ततश्च सप्तरात्रान्ते विद्यया धार्यमाणया विद्याधराधिपत्यम् स लेभे अप्रतिहतम् नृपः ततः कतिपया होभिर्विद्येत मनोगति जगाम देवदेवस्य शिष्यस्य चरणान्तिकम् मृडाल गौरम श्रुतिवास संस्फुरत किरीट केयूर कटित्र कंकणम प्रसन्न वक्त्रारुण लोचनम मृतम ददर्श सिद्धेश्वर मंडल प्रभु तद्दर्शन ध्वस्त समस्त किल विषह स्वच्छा मलांत कर्णो भयान मुनि प्रवृद्ध भक्त प्रणयाश्रु लोचन प्रहृष्ट रोमान्नमदादि पुरुषम स उत्तम श्लोक पदाब्ज विस्तरम प्रेमाश्रुले शैरूपमेहि अनुमो प्रेम परुद्धाखिल वर्ण निर्गमो नैवासकर्तम प्रसमीलितुम चिरम ततः समाधाय मनो मनीषया बभाषेतत् प्रतिलब्ध वागसौ नियम्य सर्वेन्द्रिय वायुवर्तनम् जगद्गुरुम् सात्वत शास्त्र विग्रहम् चित्रकेतुर्वाच अजिता जिता सममतिभिः साधुभिर्भवान् जितात्मभिर्भवता विजितास्तेऽपि च भजतामकामात्मनाम् य आत्मदोति कर्णः तव विभवः खलु भगवन् जगद् उदय अस्थिति लयादिनि विश्वसृजस्ते अंशांशास्तत्र मृषा स्पर्धन्ते पृथगभिमत्या परमाणु परम महतोस्त्वमाद्यन्तर्वर्ती त्रय विधुरः आदावन्तेऽपि च सत्त्वानां यद्ध्रुवम् तदेवान्तरालेऽपि चित्यादिभिरेष किलावृतः सप्तभिर्दश गुणोत्तरैरण्डकोशः यत्र पतत् अनुकल्पः सहाण्डकोटिकोटिभिस्तदनन्तः विषयत्रिशो नरपशवो य उपासते विभूतिर्न परम् त्वाम् तेषामाशीष ईश तदनु विनश्यन्ति यथा राजकुलम् कामधियस्त्वयि रचिता न परम् रोहन्ति यथा करम् बीजानि ज्ञानात्मनि अगुणमये गुणगणतश्च द्वन्द्वजालानि जितम् अजित तदा भवता जदाह भागवतम् धर्ममन्वद्यम् निष्किञ्चना ये मुनया आत्मा रामायमुपासते वर्गाय विषममतिर्न यत्र नृणाम् त्वम् अहमिति मम तवेति च जदन्यत्र विषम धिया रचितो यः स य विशुद्धः क्षैष्णुदधर बहुलः कः क्षेमो निजपरयो कियानर्थः स्वपरद्रुहा धर्मेण स्वद्रोहा तव कोपः परसम्पीडया च तथा धर्मः न व्यभिचरति तवेक्षा यथा यभिहितो भागवतो धर्मः स्थिरचरसत्त्वकदम्बेषु अपृथग्धियो जमुपासते द्वार्जः न हि भगवन् अघटितमिदम् त्वद्दर्शनानृणामखिलपापक्षयः जन्नाम सकृतश्रवणात् पुल्कस्कोऽपि विमुच्यते संसारात् अथ भगवन् वयमधुना त्वदवलोक परिमृष्टा शयमलः सुरऋषिणा जदुदितम् तावकेन कथमन्यथा भवति विदितमनन्त समस्तम् तव जगदात्मनो जनैरिहाचरितम् विज्ञाप्यम् परम् गुरोः कियदिव सवितुरिव खद्योदय नमस्तुभ्यम् भगवते सकल जगत्स्थितिलयोदयेशाय दुर्वसितात्मगतये कुयोगिनम् भिदा परमहंसाय यम् वै श्वसन्तमनुविश्वसृजः श्वसन्ति यम् चेकितानमनुचित्तय उच्चकन्ति भूमण्डलम् सर्षपायति यस्य मूर्ध्नि तस्मै नमो भगवते स्तु सहस्रमूर्ध्ने शेषोवाच संस्तुतो भगवानेव मनन्तस्तमभाषत विद्याधरपतिम् प्रीतश्चित्रकेतुम् कुरुद्वः श्री भगवान उवाच जन्नादांगिरोभ्याम तेभ्य तमेनुशासन संसिद्धोषितया राज विद्या दर्शनाक्ष मे अहं वै सर्वभूतानि भूतात्मा भूतभावन शब्द ब्रह्म परम ब्रह्म ममो भे शाश्वती तनु लोके विततमात्मानं लोके चात्मनि संततम् उभयं च मया व्याप्तं मयि चयोभयं कृतं यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः एवं जागरणादीनि जीवस्थानानि चात्मनः मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा सुखं च निर्गुणं ब्रह्म तमात्मानम् अवेहिनाम् उभयं स्मरतः पुंसः प्रस्वाप प्रतिबोधयो अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत्परम् यदेतत् विस्मृतं पुंसो मद्भावं भिन्नमात्मनः ततः संसार एतस्य देहादेहो मृतिर्मृतिः लब्ध्वेह मानुषीं योनिं ज्ञान विज्ञान संभवाम् आत्मानं यो न बुध्येत न क्वचित् क्षममाप्नुयात् स्मृत्वेहायं परिक्लेशं ततः फल विपर्ययम् अभयं चाप्य निहायं संकल्पाद् विरमेत् कविः सुखाय दुःखमोक्षाय कुर्वाते दंपति क्रिया ततो अनिवृत्तिरप्राप्तिर्दुःखस्य च सुखस्य च एवं विपर्ययं बुद्ध्वा दृढां विज्ञाभिमानिनां आत्मनश्च गतिं सूक्ष्मां स्थानत्रय विलक्षणां दृष्टश्रुताभिर्मात्राभिर्निर्मुक्तः स्वेन तेजसा ज्ञान विज्ञान संतुष्टो मद्भक्तः पुरुषो भवेत् एतावान्नेव मनुजय योगनय पुनबुद्धिभिः स्वार्थ सर्वात्मना ज्ञेयो यत्परात्मैकदर्शनम् त्वमेतत् श्रद्धया राजन् अप्रमत्तो वचो मम ज्ञान विज्ञान सम्पन्नो धारय नाशु सिद्ध्यसि श्रीशुक उवाच आश्वास भगवान् इत्थं चित्रकेतुं जगद्गुरुः पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितां षष्ठस्कन्धे चित्रकेतोः परमात्मदर्शनं नाम षोडशोऽध्यायः।